नमः सर्वेभ्यः। अद्य चम्पूरामायणस्य बालकाण्डे ऊनविंशः पाठः, एप्रिल् मासस्य षोडशः दिनाङ्कः। लक्ष्मीं तनोतु नितरामितरानपेक्षमङ्घ्रिद्वयम् निगमशाखिशिखाप्रवालम् हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नम् विघ्नाद्रिभेदशतधारधुरन्धरन्नः। बालकाण्डे श्रीरामस्य तस्य भ्रातॄणां च जननं दृष्टवन्तः। तमेन मन्वजायन्त त्रयस्त्रेताग्नितेजसः अग्रदस्यानुकुर्वन्तः तैस्तैर्लोकोत्तरैर्गुणैः। श्रीरामम् अनु श्रीरामस्य पश्चात् त्रयः त्रेताग्नितेजसः, गार्हपत्य दक्षिणाग्नि आहवनीय दक्षिणाग्नि इति त्रयः अग्नयः, तेषां तेजः इव तेजसम् धरन्तः त्रयः जाताः। भरतस्तेषु कैकेय्यास्तनयो विनयोज्ज्वलः, अन्यौ लक्ष्मणशत्रुघ्नौ सुमित्रायां कृतोदयौ। कैकेय्याः पुत्रः भरतः, सुमित्रायाः पुत्रौ च लक्ष्मणशत्रुघ्नौ। एते ववृधिरे वीराः ब्रह्मक्षेमाय दीक्षिताः, लोकानन्दमुकुन्दस्य चत्वार इव बाहवः। एते चत्वारः अपि राजकुमाराः वृत्तिङ्गताः, विद्याभ्यासादिकं कृत्वा लोकहितं लोकहितङ्कराः प्रवृद्धाः। अथ कदाचित् अपरिमेयमायासमुद्धत दैत्यबलावस्कन्दकान्दिशीक वृन्दारक वृन्दारकानीक परिवार्यमाणरथः पङ्क्तिरथः। तपश्चर्या जातानामाश्चर्याणामायतनम् त्रिशङ्कुयाजिनम् भगवन्तम् पद्यप्रबन्धमिव दर्शितसर्गभेदम् प्राकृतव्याकरणमिव प्रकटितवर्णव्यत्यासम् बुधमिव सोमसुतम् कुशिकसुतम् अद्राक्षीत्। तत्र दशरथः विश्वामित्रम् पश्यति, अर्थात् विश्वामित्रः दशरथस्य आस्थानम् प्रति आगतः श्रीरामम् श्रीरामस्य साह्यं प्रार्थयितुं यज्ञसंरक्षणार्थम् एतावत् दृष्टवन्तः। अग्रिमः गद्यभागः, तदनु यथाविधिकृतसपर्येण मर्यादातीतमहिम्ना महितेन गाधेतरहृदयेन गाधिनन्दनेन सत्रपरित्राणार्थमित्थमभ्यर्थितोऽभूत्। गिरिजा भगिनी, want to try the paracheda? Hariyo, Girija Murali, Shweteva, unable to hear you. Anya Kepi? जानकी माता,
तदनु तत्त्वं कृतसपर्येण मर्याद अतीतमहिम्ना महितेन
गाधेतर
हृदयेन गाधिनन्दनेन तत्र परित्राणार्थम् इत्थम् अभ्यर्थितः अभूत्।
सम्यक्। सो तदनु यथाविधि कृतसपर्येण मर्यादा अतीतमहिम्ना मर्यादातीतमहिम्ना महितेन गाधेतरहृदयेन गाधेतरहृदयेन गाधिनन्दनेन सत्र परित्राणार्थम् इत्थम् अभ्यर्थितः अभूत्। तदनु तदनन्तरम् अर्थात् विश्वामित्रदशरथयोः मेलनं पूर्वत्र वर्णितं, तदनन्तरम् इत्यर्थः। अभ्यर्थितः अभूत् इति अन्ते क्रियापदमस्ति, अभ्यर्थितः प्रार्थितः आसीत् was requested. Kaha abhyarthitaha iti karma atra na nirdishyate. Purvatana vakyate dasharathaha iti adhyahriyate. So purvatana vakye katrapadamasi dasharathaha. Parivarya manarathaha panktirathaha kushikasuta madrakshit. Saha abhyarthitaha bhudataha saha dasharathaha iti purvasmad vakyat labhyate. So dasharathaha prarthitaha. So dasharatha was requested. Kena abhyarthitaha gadhi nandanena gadhihi iti vishwamitrasya pituhu namadheyam. So vishwamitra, he was a kshatriya, his father was called gadhi. Okay. So gadhi gadhehe nandanaha gadhi nandanaha gadhi putaha gadhi sutaha athava putraha. So even in the typing there is an error. So gadhi sutena or gadhi putrena vishwamitrena. So by vishwamitra, that is the son of gadhi, dasharatha was requested. Okay. So kidrishena gadhi nandanena ityatra chatvari visheshanani santi yatha vidhi krita saparyena maryada tita mahimna mahitena gadhetara hridayena gadhi nandanena. Chatvari visheshanani santi gadhi nandanena ityasya. So yatha vidhi krita saparyena yatha vidhi vidhim anatikramya shastranugunam krita saparyena krita saparya saparya nama puja pujitena ityarthaha. So katham yadya kashchir atithihi vishishya eshaha brahmarshihi asti saha praptaschet tasya satkaraha katham kartavyaha ityatra vidhihi nirdishtaha asti padyargya asamaniya asana ityadi pradanena satkaraha kartavyaha evam yathochitam satkritena pujitena gadhinandanena. So Dasharatha was requested by Vishwamitra, who was offered after he had been offered the customary worship, which is deserving of an honored guest like Vishwamitra. So Krita Saparya refers to Vishwamitra, that is Vishwamitra has been worshipped by Dasharatha and now he is requesting Dasharatha. So yatha vidhi krita saparyena maryada atita mahimna maryadam atitah, so which is beyond a limit, limitless, unlimited mahima, mahiman shabdaha, mahima is greatness, splendor, mahatmyam, so aparimita mahatmya shalina. So the Vishwamitra who possessed unlimited greatness, Vishwamitra who had unlimited greatness, tadrishena gadhinandanena mahitena mahitaha nama pujyaha. So the venerable Vishwamitra gadhetara hridayena gadha agadha, you should have heard of agadha. Gadha is shallow, gadhetara is very deep. So gambhira chetasa, so he whose heart is or whose mind is very deep, that is Vishwamitra. It indicates that Vishwamitra is not asking for Rama only for some superficial purpose, not just, I mean, satra paritrana is a purpose, yes, but that is not the only purpose. So he has several things in mind, including Rama's welfare, his education, and so on. So gadhetara hridayena, so gadhetara is the same as agadha, na gadha agadha, similarly other than gadha, that is agadha hridayena, he who's of deep thoughts, he who is a very deep thinker ityartha. So yatha vidhi krita saparyena maryada atita mahimna mahitena gadhetara hridayena gadhinandanena abhyarthitaha abhut. So Dasharatha was requested by Vishwamitra, who had been worshipped according to the customs, who possessed unlimited greatness, who was venerable and a deep thinker. Kimartham abhyarthitaha satra paritranartham satram nama yajnaha. सत्रस्य यज्ञस्य परित्राणार्थम् रक्षणार्थम् प्रार्थितः. सो दशरथ वाज रिक्वेस्टेड फॉर प्रोटेक्शन ऑफ सैक्रिफाइस. कथम् अभ्यर्थितः इत्थम्. सो दस. सो ही इज गोइंग टू डिस्क्राइब विश्वामित्र वचनानि अग्रे वक्ष्यन्ते. सो वक्ष्यमाण प्रकारेण दशरथः प्रार्थितः. तत्र एतदेव कथयति विश्वामित्रः मूलरामायणे. अहम् नियममातिष्ठे सिद्ध्यर्थम् पुरुषर्षभ तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ. सो द्वौ राक्षसौ तस्य नियमस्य यज्ञस्य विघ्नम् आचरतः, तदर्थम् अहम् भवतः समीपम् प्राप्तः इत्येवम् विश्वामित्रः दशरथम् कथयति. सो तदनु यथाविधि कृतसपर्येण मर्यादातीतमहिम्ना महितेन गाधेतरहृदयेन गाधिनन्दनेन दशरथः सत्रपरित्राणार्थम् इत्थम् अभ्यर्थितः अभूत्. सो दशरथः आगतम् विश्वामित्रम् विधिवत् पूजितवान्. ततः पूज्यः अपरिमितमाहात्म्यशाली गम्भीरमनस्कः विश्वामित्रः यज्ञस्य रक्षणार्थम् दशरथम् एवम् प्रार्थयामास. सो दिस् इस् इन् कर्तरि. द ओरिजिनल् सेण्टेन्स् इस् इन् कर्मणि. गाधिनन्दनेन दशरथः अभ्यर्थितः. सो गाधिनन्दनः दशरथम् अभ्यर्थितवान्. सो विश्वामित्र रिक्वेस्टेड् दशरथ. सो इट् इस् इन् द पासिव. सो तदनु यथाविधि कृतसपर्येण मर्यादातीतमहिम्ना महितेन गाधेतरहृदयेन गाधिनन्दनेन सत्रपरित्राणार्थमित्थमभ्यर्थितोऽभूत्. यथाविधि, विधिम् अनतिक्रम्य, नाट् डीवियेटिङ्ग् फ्रम् द विधि. अव्ययीभावसमासः पदम् अव्ययम् भवति. सो अव्ययीभावसमास द फैनल् प्रोडक्ट् इस् एन् अव्यय. सो यथाविधि इस् एन् अव्यय. कृतसपर्येण, कृता सपर्या यस्य सः कृतसपर्यः तेन कृतसपर्येण. सो पूजा नमस्यापचिति सपर्यार्चार्हणास्समाः इत्यमरः. पूजा नमस्या अपचितिः सपर्या अर्चा अर्हणा. आल् दीस् आर् सिनोनिम्स् आफ् वर्शिप्. मर्यादातीतमहिम्ना, मर्यादामतीतः. सो मर्यादा मीन्स् लिमिट्. So maryada is not the maryada of say Kannada or Tamil, where it is used for respect or being respectable. So maryada ityasya seema ityarthah. So it is a limit. So maryadam atitah, beyond a limit. So maryada atitah mahima yasya saha maryada atita mahima iti nakarantah pullingah. Maryada atita mahiman नकारान्तशब्दः. तस्य तृतीया विभक्तौ एकवचने मर्यादातीतमहिम्ना इति रूपम्. महितेन गाधेतरहृदयेन, गाधादितरम् गाधेतरम्, गाधेतरम् हृदयम् यस्य सः गाधेतरहृदयः तेन बहुव्रीहि समासः. गाधिनन्दनेन, गाधेः नन्दनः गाधिनन्दनः तेन षष्ठी तत्पुरुषः. सत्र परित्राणार्थम्, सत्रस्य परित्राणम्, सत्र परित्राणम् तस्मै सत्र परित्राणार्थम्. सो द चतुर्थी विभक्ति गेट्स् कम्बैन्ड् वित् अर्थ शब्द. सो सत्र परित्राणार्थम् सत्रम् आच्छादने यज्ञे इत्यमरः. सो सत्र इस् यूस्ड् फार् आच्छादन, अ कवर्. And yajna is also used for sacrifice. Atra tu yajna itteva arthah. Abhyarthitah, abhi upasargah, artha upayachyayam iti dhatuhu kta pratyayah. So artha dhatu, in prarthana also we have the same dhatu. Abhyarthana, prarthana, arthana, all those are synonymous. So it means to request. क्त प्रत्ययान्तशब्दः. अभूत्, भू सत्तायाम् इति धातोः लुङ्लकारे प्रथमपुरुषे एकवचनम्. सो तदनु यथाविधि कृतसपर्येण मर्यादातीतमहिम्ना महितेन गाधेतरहृदयेन गाधिनन्दनेन सत्र परित्राणार्थम् इत्थम् अभ्यर्थितो भूत्। एनी क्वेश्चन्स्? राजन् भवतस्तनयेन विनयाभिरामेण रामेण शरासनमित्रेण सौमित्रिमात्रपरिजनेन क्रियमाणक्रतुरक्षो रक्षोदुरितमुत्तीर्य कृतावभृतो भवितुमभिलषामीति। सो दिस् इस् इति, सो दस् इत्थम् इत्यस्य इति इति अन्वयः। सो हौ वाज़् हि रिक्वेस्टेड्? एवं दशरथः विश्वामित्रेण एवम् अभ्यर्थितः इति। सो परच्छेदः एनिबडि? वीणा, सुरेश, यू हैव टू अनम्यूट योरसेल्फ।
राजन् भवतः तनयेन विनयाभिरामेण रामेण शरासनमित्रेण सौमित्रीमात्रपरिजनेन क्रियमाणक्रतुरक्षः रक्षोदुरितम् उत्तीर्य कृत अवभृतः भवितुम् अभिलषामि इति।
सम्यक्। सो राजन् इति सम्बोधनम्। राजन् भवतः तनयेन विनय अभिरामेण विनयाभिरामेण रामेण शरासन शर आसन शरासन मित्रेण सौमित्रि मात्र परिजनेन क्रियमाण क्रतु रक्षः रक्षोदुरितम् रक्षः दुरितम् रक्षस् शब्दः उत्तीर्य कृत अवभृतः भवितुम् अभिलषामि इति। सो राजन् इति सम्बोधनम् दशरथस्य। हे नृप, अभिलषामि इच्छामि, अहम् इच्छामि, किम् अभिलषामि? कृतावभृतः भवितुम् इच्छामि। अवभृतः पूर्वमपि दृष्टः शब्दः, अवभृते वसिते सरयूतटा रथ यथा यथमुच्चलिते जने। दशरथः परिपूर्णमनोरथः पुरमगात् पुरुहूत पुरी पुरोपमाम्। सो अवभृतः नाम दीक्षान्तस्नानम्। So the customary ritual bath at the end of a yajna. So once you have successfully completed a yajna, the yajamana takes a bath at the end, which is called avabhrita. So krita avabhritaha bhavitum, yajnam samapya dikshanta snanam kartum. So avabhrita can be done only if the yajna has been successfully completed. यज्ञस्य साफल्ये एव अवभृतः अवभृतस्नानं कर्तुं शक्यते। अतः कृतावभृतः भवितुम् अभिलषामि, अवभृतस्नानं कर्तुम् इच्छामि, अर्थात् यज्ञं पूरयितुम् इच्छामि इत्यर्थः। किं कृत्वा? उत्तीर्य, उत्तीर्य तीर्त्वा, अतीत्य हैविंग क्रॉस्ड। किम् उत्तीर्य? रक्षो दुरितम्, रक्षः नाम राक्षसाः। सो राक्षसरूपं विघ्नम् उत्तीर्य अथवा राक्षसानां दुष्कृत्यं, दुरितशब्दस्य विघ्नः इत्यप्यर्थः अस्ति, पापं दुष्कृत्यम् इत्यपि अर्थः अस्ति। अतः राक्षसानां दुष्कृत्यम् उत्तीर्य अथवा राक्षसरूपं विघ्नम् उत्तीर्य तीर्त्वा कृतावभृतः भवितुम् अभिलषामि। सो कीदृशः सन् इत्यत्र क्रियमाणक्रतुरक्षः, अहम् क्रियमाण क्रतुरक्षः, सो संरक्ष्यमाण यज्ञः, सो वित् मै यज्ञ बीयिङ्ग् प्रोटेक्टेड्, सो ऐ वुड् लैक् टु पर्फार्म् द अवभृत स्नान हेविङ्ग् क्रास् द ऑब्स्टेकल्स् इन् द फार्म् आफ् डीमन्स् वित् मै यज्ञ बीयिङ्ग् प्रोटेक्टेड् क्रियमाण क्रतुरक्षः। केन केन क्रियमाण क्रतुरक्षः? सो प्रोटेक्टेड् बै हूम्? रामेण। सो रामेण क्रियमाण क्रतुरक्षः, अहम् कृतावभृतः भवितुम् अभिलषामि। सो वित् मै यज्ञ बीयिङ्ग् प्रोटेक्टेड् बै राम ऐ वुड् लैक् टु पर्फार्म् द अवभृत स्नान। सो कीदृशेन रामेण, सो रामस्य विशेषणानि सन्ति भवतस्तनयेन विनयाभिरामेण शरासनमित्रेण सौमित्रि मात्र परिजनेन. सो फोर एडजेक्टिव्स टू राम. ओके, सो फर्स्ट थिंग ही सेज इज भवतः तनयेन. सो इट इज he is referring to the extreme vatsalya of Dasharatha looking at Rama as his son. Okay, so Vishwamitra knows and Vasishtha knows that Rama is actually the Lord himself who has incarnated, but Dasharatha in his moha he looks at him as his own son. So remarking on that, Vishwamitra says bhavatastanayena. So it is like a sarcastic thing, bhavataha tanayena. So he has taken form as your son, but vastataha saha bhagavan iti. So bhavataha tanayena dasharathasya putrena vinayabhiramena vinaya rupena gunena abhiramaha sundaraha vinayaha ataha saha uktam shrunoti. So he who is obedient ityarthaha. So vinaya guna bhushitena sharasana mitrena. Sharasanam nama dhanuh, the bow. Sharaha banaha, sharasya asanam. So the seat of the arrow is the bow. So dhanuh. So sharasanam mitram yasya saha. So with the bow as his friend. So chapadharina ityarthaha. So Rama holding his bow and saumitri matra parijanena. So parijanaha saha rajakumaraha ataha sampurnam parivaram nayati iti na. Parijanaha kevalam lakshmanaha. So being followed or attended to only by lakshmana. So sharasana mitrena saumitri matra parijanena ramena kriyamana kraturakshaha rakshodhuridamuttirya kritamabhrithaha bhavitum abhilashami. So anvayaha rajan vinayabhiramena sharasana mitrena saumitri matra parijanena bhavatastanayena ramena kriyamana kraturakshaha aham rakshoduritam uttirya kritavabhrithaha bhavitum abhilashami iti gadhinandanena satra paritranartham abhyarthitaha abhut. So hey nripa, vinaya guna bhushitena chapadharina लक्ष्मण सहायेन भवतः पुत्रेण रामेण संरक्ष्यमाण यज्ञः सन् अहम् राक्षसरूपं विघ्नम् अतीत्य यज्ञं समाप्य दीक्षांत स्नानं कर्तुम् इच्छामि. सो दिस वाज व्हाट विश्वामित्र टोल्ड दशरथ. सो ही सेड ओ किंग, सो विथ मई यज्ञ बीइंग प्रोटेक्टेड बाय योर सन राम हु इज ओबीडियंट taking only his bow and being attended to only by Lakshmana. So I would like to cross the obstacles of demons and complete the yajna successfully. So this is what Vishwamitra tells Dasharatha. So Rajan bhavatastanayena vinayabhiramena sharasana mitrena saumitri bhavatastanayena vinayabhiramena ramena शरासन मित्रेण सौमित्री मात्र परिजनेन क्रियमाण क्रतुरक्षो रक्षो दुरित मुत्तीर्य कृतावभृतः भवितुम् अभिलषामि इति. सो तत्र तदेव विश्वामित्रः कथयति दशरथं स्वपुत्रं राजशार्दूलं रामं सत्यपराक्रमं काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि. सो दशरथः पृच्छति किं कर्तुं शक्नोमि अहम् इति विश्वामित्रं पृच्छति. तदा विश्वामित्रः कथयति स्वपुत्रं राजशार्दूलं, सो राजश्रेष्ठं रामं सत्यपराक्रमं काकपक्षधरं. सो काकपक्षः, सो काकपक्ष रेफर्स् टु द कर्ली हेयर् नियर् द इयर्स्. ओके, सो इट् लुक्स् लैक् द क्रो फीट्, इट्स् द ब्लाक् कलर्ड् हेयर् कर्ल्स् आफ् हेयर्. सो विच् इस् अ सैन् आफ् यूत्. सो काकपक्षधरं युवानं शूरं ज्येष्ठं पुत्रं मे दातुमर्हसि. सो ही सेज़ वेरी क्लियरली शक्यो ह्येष मया गुप्तः दिव्येन स्वेन तेजसा राक्षसाये विकर्तारः teshamapi vinashane. Ye rakshasaha vikartaraha. So those demons who are destroying my yajna, tesham vinashane. In their destruction, eshaha shakyaha. He is capable. Divyena svena tejasa. With his own divine tejas, vela. And maya guptaha. He will be protected by me. So he is clearly giving the assurance that no harm will come to Rama. I will protect him. And he is capable, very much capable of destroying the demons by his tejas. Okay? And he also tries to lure Dasharatha. Shreyashchasmai pradasyami bahurupam nasamshayaha. Trayanam api lokanam yenakhyatim gamishyati. So he also says, Asmai bahurupam shreyaha pradasyami. I will grant him manifold prosperity. Shreyaha, different kinds of, shreyas will be given to him. Trayanam api lokanam yenakhyatim gamishyati. By which he will be famous in all the three lokas. So he is trying to take away Dasharatha's fear and also lure him with the thing that his son will become very famous, he will attain welfare, etc. Tathapi Dasharathaha na ichyati iti anyat. So agre. Bhavataha tanayena tanayaha atmajas tanayasunuhu sutah putraha ityadi amarakoshe. So tanayaha putraha ityarthaha vinayabhiramena vinayena abhiramaha abhiramaha sundaraha. So vinayabhiramaha tena vinayabhiramena ramena sharasana mitrena sharasya asanam sharasanam sharasanasya mitram tena or sharasanam mitram yasya saha tena. So a friend of the bow or with the bow as his friend. Ubhayathapi vigraha vaktum shakyate. So basically accompanied or taking his bow ityarthaha. So dhanushchapau dhanva sharasana kodanda karmukam. Dhanuhu chapaha dhanva sharasanam kodandam karmukam. All these are synonyms of the bow, dhanuhu. Saumitri matra parijanena. Saumitrihi eva saumitri matraha. Only saumitri. So saumitri matram parijanaha yasya saha. So he whose attendant is only saumitri and nobody else. So saumitri matram parijanaha yasya saha. Saumitri matra parijanaha tena. Saumitrihi sumitrayaha apatyam puman saumitrihi. So sumitra ityasmat inya pratyayaha taddhita pratyayaha apatyarthaka taddhitaha. So like dasharathasya apatyam dasharathihi sumitrayaha apatyam saumitrihi. Say the same pratyaya there called inya. Okay. So this is a thing of the Bhojaramayana. In the Valmiki Ramayana, Vishwamitra himself does not talk about Lakshmana. He asks only for Rama. But atratu lakshmanam api uddisheva vishwamitrena prachyate. Kriyamana kraturakshaha. Kratohu raksha kraturaksha. Kriyamana kraturaksha yasya saha. Raksho duritam. Rakshamsi eva duritam. So rakshamsi rakshasaha ityasaha te eva duritam raksho duritam. Uttirya ud upasargaha tri tarane iti dhatoho levantavyayam. Uttirya kritava bhrithaha kritaha avabhrithaha yena saha kritava bhrithaha bahuvrihi samasaha bhavitum abhilashami. Abhi ityupasargaha lashakantau iti dhatuhu latlakare prathamapurushe ekavat. Uttamapurushe ekavatanam. Kshamyatam. Not prathamapurusha. Uttamapurushe ekavatanam. Abhilashami. Aham abhilashami. I would like. So So Rajan Bhavatastanayena Vinayabhirameena Rameena Sharasana Mitrena Saumitri Matra Parijanena Kriyamana Tatraksho Raksho Durita Muttirya Krutavabhrutho Bhavitum Abhilashamiti. Any questions? Etadakaranya Karana Parusham Maharshi Bhashitam Atimatra Putra Vatsalyena Kausalya Atimatra Putra Vatsalyat Kausalya Jani Sashalyantah Karano Bhut. Tadachedaha. Sharada Bhagini.
Etat akarniya karna parusham maharshi bhashitam atimatra putra vatsalyat kausalya janihi sasalya antakarana abhut.
Samyak. So etat akarniya Karana Parusham Maharshi Bhashitam Ati Matra Putra Vatsalyat Kausalya Janihi Sashalya Antahkaranaha Abhut. Kriyapadamasti Sashalya Antahkaranaha Abhut. Sashalya Antahkaranaha Antahkaranam Nama Hridayam. Hridayam Kidrisham Sashalyam. So it's an idiomatic usage. Shalyam iti ayudham. It is like a bow, the tip of a bow. Okay. So sashalyam. So if there is an arrow, sorry, not the bow, the arrow. So shalya is a piece of metal, metallic, sharp piece of metal. So if there is a metal which is stuck in the heart, okay, so it is very painful. So sashalya antahkaranaha. So Pidita Hradayaha, Vidirna Hradayaha. So he was extremely agitated. Atyantam Dukhitaha Khinnaha Abhut Kaha Dasharathaha. So Sashalyantakaranaha Abhut. So Kaha Sashalyantakaranaha Abhut Kausalya Janihi Kausalyayaha Patihi Dasharathaha Sashalyantakaranaha Abhut. Kinkritva Akarnya Shrutva, so hearing. Kim akarnya yetat maharshi bhashitam. So these words of the maharshi, that is Vishwamitra. So purva varanitam Vishwamitra vachanam shrutva. So hearing to these words of Vishwamitra, so Dasharatha was extremely agitated. So kidrisham asit maharshi bhashitam karana parusham. Not purusham, sorry. Oh, I think everywhere there has been a error. So it is everywhere it is Karana Parusham. Okay, not Purusham. Karana Parusham. Parusha is Kathora, extremely harsh. So Karana Yoho Parusham Kathoram. So which was extremely harsh to the ears. He could not even bear to listen to words which indicated separation from Rama. So etadakarnya karana parusham maharshi bhashitam. So karana parusham etat maharshi bhashitam akarnya. Kimartham kena hetuna sashalyantah karana abhut atimatra putra vatsalyat. So atimatra matram atikramya. So it is like that maryada tita. So matra is a measure. So Atimatra, matram atikrantaha, that which cannot be measured, immeasurable, putra vatsalyam, affection for his son. Because of his excessive affection for his son, kausalya janihi sashalyantahkaranaha abhut. So Dasharatha was extremely agitated. Etat karna parusham maharshi bhashitam akarnya atimatra putra vatsalyat kausalya janihi sashalyantah karanaha abhut. सो पुत्रं रामं राक्षसनाशाय प्रेषय इत्येवं रूपं कर्णकठोरं ऋषिवचनं श्रुत्वा अपरिमितेन पुत्रस्नेहेन दशरथः विदीर्णहृदयः अभवत्. सो हियरिंग द हार्श वर्ड्स ऑफ द सेज दट इज सेंड राम फॉर किलिंग द राक्षसस. सो हियरिंग दिस दशरथ वॉज एक्सट्रीमली एजिटेटेड बिकॉज ऑफ हिज एक्सेसिव अफेक्शन फॉर द सन. सो सतम निशम्य राजेन्द्रो विश्वामित्रवच शुभम शोकेन महता विष्टः चचाल च मुमोह च. सो वाल्मीकि ब्यूटिफुली ब्रिंग्स आउट शुभम विश्वामित्रवच निशम्य. सो ही इज सो powerfully bringing out the contrast with such simple words. So it is a shubham vakyam. So it's a very auspicious, it's actually something which should have delighted him. But shokena mahata vishtaha. So engulfed by extreme sorrow. Chachalata mumohata, he actually fainted. Dasharatha fainted hearing to these words. So the beauty of Valmiki lies in such small things. विश्वामित्रवचः शुभम निशम्य शोकेन महता विष्टः. सो व्हाट एन आयरनी दैट हिज पुत्रवात्सल्य इज प्रिवेंटिंग हिम फ्रॉम रियलाइजिंग व्हाट इज एक्चुअली बेनिफिशियल फॉर हिज ओन सन. सो सतम निशम्य राजेन्द्रो विश्वामित्रवचः शुभम शोकेन महता विष्टः चचाल च मुमोह च लब्धसंज्ञः ततोत्थाय व्यशीदत भयान्वितः. Labdhasamyaha, and then regaining his consciousness, he lamented bhayanvitaha, out of fear. So he is scared of losing his son. Akarnya shrutva ityarthaha, a ityupasargaha karna bhedane iti dhatuhu lyavantavyayam. Karna parusham, karnasya parusham. So I'm sorry, this was copied from somewhere. Everywhere it has become Purusha. It is Parusha. Karana Parusham. So Karana Shabda Grahau Shrotram. So Karanaha Nama Shrotram. Ear Parusham Nama Atyantam Kathoram Ityarthaha. Maharshi Bhashitam. Mahan Rishihi Maharshihi. Maharshehe Bhashitam. Maharshi Bhashitam. So here the commentator, he brings out a definition of a Rishi. ऊर्ध्वरेताः तपस्युग्रः नियताशी च संयमी शापानुग्रहयो शक्तः सत्यसंधो भवेद् ऋषिः. एतत् ऋषेः लक्षणम्. ऊर्ध्वरेताः नाम जितेन्द्रियः, तपसि उग्रः, नियताशी बहु मिताशनः, मितं भुङ्क्ते मितभुक्, संयमी शाप अनुग्रहयो शक्तः. So, who is a Rishi? He who has controlled his senses, who has performed severe penance, he who eats only a limited amount, Sayami, he who has perfect self-control, he who is capable of both cursing and providing a boon and blessing, Satyasandhaha, and who is always truthful. So, such a person is called a Rishi. Vishwamitra is a Maharshi. And he says that is the reason for Dasharatha's bhaya, because he is afraid that if he refuses, the Maharshi may curse him. Shapa anugrahayo shaktaha atayeva Dasharathasya atyantam bhayam utpannam. Atimatra putra vatsalyat matram atikrantam atimatram. So atimatram putra vatsalyam, atimatra putra vatsalyam tasmat. So it is panchami, so instead of pena we can have tasmat. Kausalya janihi, Kausalya jaya yasya saha, he whose wife is Kausalya. So saha Kausalya janihi ityasya vigraha bhavati Kausalya jaya yasya saha. So jaya ya ning iti sutramasti. So jaya, the final letter is replaced by ni, so it becomes jani. Okay, so it is not kausalyayah janihi jani iti shabdah nasti kausalya jaya yasya saha. Okay, so bahu prasiddha etadrishah prayogah sita janihi sita jaya yasya saha sita janihi parvati janihi parvati jaya yasya saha. So kausalya janihi sashalyantah karanah shalyena sahitam sashalyam. So shalya is a thorn or a piece of metal. So sashalyam antahkaranam yasya. He who is whose heart is pierced by a shalya. So sashalyam antahkaranam yasya saha sashalya antahkaranah abhut. Okay. So etadakarnya karana parusham maharshi bhashitam atimatra putra vatsalyat kausalya janihi sashalya antahkarano bhut. Any doubts? Tatas tasmin bahu prakarai ravarjya nishchaye bhagavati vishwamitre dasharathas tapana kulahitena purohitena eva mabhuvito bhut. Tadachedaha.
ततः तस्मिन् बहु प्रकारैः अवार्य निश्चये भगवति विश्वामित्रे दशरथः तपन कुलहितेन पुराहितेन एवं
पुरोहितेन
एवं अभिहितः अभूत्
अभूत् सम्यक्. Yeah, it should be purohitena. Tataha tasminna bahu prakaraihi avarya nishchaye bhagavati vishwamitre dasharathaha tapana kulahitena purohitena evam abhihitaha abhut. Tataha tadanantaram abhihitaha abhut. Uktaha. Kaha abhihitaha dasharathaha. So dasharatha was now said. Kena abhihitaha purohitena. Kulaguruna vasishthena. So this dialogue happens and dasharatha tries to convince Vishwamitra. Vishwamitra does not agree for anything other than Rama. So tada dasharathaha purohitena. कुलगुरुणा वसिष्ठेन अभिहितः अभूत्. कीदृशेन पुरोहितेन तपन कुलहितेन. तपनः नाम सूर्यः. सूर्यस्य कुलं सूर्यवंशः. सूर्यवंशस्य हितः नाम हितकारी. सो बै वसिष्ठ हू वाज ऑलवेज केयरिंग फॉर द वेलफेयर ऑफ द सूर्यवंश. सो तेन अभिहितः. कदा अभिहितः? तस्मिन् भगवति विश्वामित्रे बहुप्रकारैः अवार्य निश्चये सति. सति सप्तमी प्रयोगः. सो वेन् द वेनरेबल विश्वामित्र वाज अवार्य निश्चय. सो भगवति पूज्ये विश्वामित्रे बहुप्रकारैः नानाविधैः उपायान्तरैः. Dasharatha offers Vishwamitra several other solutions, but with all of them, avarya nishchayah, avaryah nama nivarayitum ashakyah, impossible to change or to remove, to stop, kim nishchayah nirdharah, to deviate from decision. So, despite all entreaties of Dasharatha, all his requests, so by all his solutions, Dasharatha, Vishwamitra does not change his intention, which is to take Rama and Rama only. Okay. So, avarya nishchaye Vishwamitre. So, when Vishwamitra remained firm in his decision, when Vishwamitra remained unchanged in his decision, even by many other many different kinds of solutions. So Dasharatha was told thus by Vasishtha. So Dasharathena Bahudha Prarthitaha Api Shri Rama Vishwamitraha Shri Rama Eva Netavyaha Iti Atmanaha Nishchayam Na Parivartayamasa. So he did not change his decision that only Rama should come. So Tataha Tasmin Bahuprakaraihi Avarya Nishchaye Bhagavati Vishwamitre Dasharathaha Tapanakulahitena Purohitena Evam Abhihitaha Abhut. So kim tatparyam nana vidhaihi samadhanantarairapi vishwamitre svanirdhara davichalye sati raja dasharathaha suryavamshasya hitakarina kulaguruna itthamuktaha. Okay. So this is what Dasharatha tries. So he says, so he starts with saying Rama is so young. Unashodasha varsho me ramo rajiva lochanaha na yuddha yogyatamasya pashyami sarakshasaihi. So he is not even 16. So I do not think he has any capability of fighting with Rakshasas. Yuddha yogyatam tadapi rakshasaihi saha yuddha yogyatam napashyami. So next he offers a different one. Ime shurascha vikrantaha bhritya mestra visharadaha yogya rakshoganair yodhum naramam netumarhasi. So I have several soldiers, bhrityaha astra visharadaha, who are experts in all astras, shurascha vikrantaha, extremely powerful and brave. So yogyaha rakshoganaihi yodhum, they are capable of fighting with the rakshasas, so don't take Rama. So first is that Rama cannot do this, and I will offer you supplement or something else that is in multiple numbers, bhrityaha, who can do your job for you. And then he says, ahameva dhanushpanihi gopta samaramurdhani yavat pranan dharishyami tavat dyotsye nishacharehi. Okay, forget the soldiers. I myself will come with my bow and I will fight at the head of the battle. Yavat pranan dharishyami, as long as I am alive, I will fight with the demons. Okay, so that is his third offer. And he says, or okay, if you want Rama, fine, take him, but let me also come along with him. Yadiva raghavam brahman netumichyasi subrata chaturanga samayuktam maya sahacatam naya. Okay, if you are so obsessed with Rama, take Rama along with me and my chaturanga sainya. Okay, so he will come to protect him. So these are all the different kinds of things that Dasharatha tries with Vishwamitra, and Vishwamitra does not accept. So that is the bahuprakaraihi avarya nishchaye. So that is why Bhoja made it clear at the first thing. Sharasana mitrena saumitri matra parijanena. So I want Rama only with his bow and Lakshmana and nothing else. So bahuprakaraihi avarya nishchaye bhagavati Vishwamitre. So then Vasishtha intervenes to advise Dasharatha to do as Vishwamitra tells. Okay. So avarya nishchaye, avaryaha nishchayaha yasya saha, avarya nishchayaha tasmin. So the whole thing is sati saptami. Bhagavati Vishwamitre avarya nishchaye sati. So when the venerable Vishwamitra could not be deviated from his decision. Dasharathaha tapanakula hitena. So tapanasya kulam tapanakulam. Tapanakulasya hitaha tena. Tapanakula hitena. So bhanur hamsa sahasram shuhu tapanasavita ravihi. Iti amaraha. So tapana is tapayati. He who burns is tapana, the sun. Purohitena evam abhihitaha. So abhi upasargaha dha dhatuhu. Dudhanya dharana poshanayoho iti dhatuhu kta pratyayah. So abhihitaha abhut. So tatas tasmin bahuprakare ravadya nishchaye bhagavati Vishwamitre dasharathas tapanakulahitena purohitena ivam abhihito abhut. Okay. So adya gadya bhagaha drishtaha. तदनु यथाविधि कृतसपर्येण मर्यादातीतमहिम्ना महितेन गाधेतर हृदयेन गाधिनन्दनेन सत्रपरित्राणार्थमित्थमभ्यर्थितोऽभूत्। विश्वामित्रः कीदृशः विश्वामित्रः? यथाविधि कृतसपर्यः, दशरथेन विधिवत् पूजितः, मर्यादातीतमहिमा, अपरिमित महात्म्ययुक्तः विश्वामित्रः, पूज्यः विश्वामित्रः दशरथम् उद्दिश्य प्रार्थितवान्। किमिति प्रार्थितवान्? राजन्, भवतस्तनयेन विनयाभिरामेण रामेण शरासनमित्रेण सौमित्रिमात्रपरिजनेन क्रियमाणक्रतुरक्षो रक्षोदुरितमुत्तीर्य कृतावभृतो भवितुम् अभिलषामीति। सो लक्ष्मणसहितेन धनुष्पाणिना रामेण संरक्ष्यमाणयज्ञः अहम् यज्ञं समाप्य अवभृतं कर्तुमिच्छामि। अतः यज्ञस्य संरक्षणार्थं सलक्ष्मणं रामं प्रेषय इति विश्वामित्रः दशरथं प्रार्थयते। एतदाकर्ण्य कर्णपरुषं महर्षिभाषितम् अतिमात्रपुत्रवात्सल्यात् कौसल्यादानिः सशल्यान्तःकरणः अभूत्। विश्वामित्रस्य वचनं श्रुत्वा भीत्या पुत्रवात्सल्येन च दशरथः अत्यन्तं दुःखितः आसीत्। ततस्तस्मिन् बहुप्रकारैरवार्यनिश्चये भगवति विश्वामित्रे दशरथः तपनकुलहितेन पुरोहितेन एवम् अभिहितोऽभूत्। सो विश्वामित्रस्य निर्धारे अविचाल्ये सति दशरथम् उद्दिश्य वसिष्ठस्य वचनम् अग्रे उच्यते। सो द नेक्स्ट् श्लोक टेल्स् वाट् वसिष्ठ टोल्ड् दशरथ। सो अत्र वर्गं स्थगयामः। सो विल् कण्टिन्यू इन् द नेक्स्ट् क्लास्। लक्ष्मीं तनोतु नितरामितरानपेक्षमङ्घ्रिद्वयं निगमशाखिशिखा प्रवालं हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नं विघ्नाद्रिभेदशतधारधुरन्धरन्नः।